पार्वण्य रोजो सूरस Sameva, 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 गीता जी का पाठ पांचवा अध्याय श्लोक 11 से 20 तक। पांचवा अध्याय श्लोक 11 से 20 तक। राम
वसुदेव सुतम देवकी करमानंदम् कृष्णं वन्दे जगद्गुरुम् कायेन मनसा बुद्ध्या केवलेनेन्द्रियैरपि योगिनः कर्म कुर्वन्ति साङ्गं त्यक्त्वात्मशुद्धये योक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकी अयोक्तः कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनुषा सन्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्त्रे त्वं न कर्माणि लोकस्य सृजति प्रभो न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते नाद्यते कस्य चेत् पापं न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मोह्यन्ति जन्तव ज्ञानेन तु तदज्ञानम् येषां नाशितमात्मन तेषामादेत्यवज्ञानम् प्रकाशयति तत्परम् तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा गच्छन्त्यपुनरावृत्ते ज्ञाननिर्भूतकर्मसा विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि सुनितैव स्ववाके च पाण्डिता समदर्शिना इहैव चैर्जितः सर्गो ईशं साम्ये स्थितं मन निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिता न प्रहृष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम् स्थिरबुद्धिरसमोऽसौ ब्रह्मविद्ब्रह्मणि स्थित न प्रहृष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम् स्थिरबुद्धिरसमोऽसौ ब्रह्मविद्ब्रह्मणि स्थित
वसुदेव सुतं देवं पंचजानुरमर्दनं देवकी करमानन्दं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरि शरणं हरि शरणं हरि शरणं हरि शरणं
हरि शरणं हरि शरणं
हरि शरणं हरि शरणं शरण